ऋषत्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परमात्रया तनुवावृधाना नते महित्वमन्वश्नुवन् यस्य नाम तद्विष्णो परमं पदं सदा पश्यन्ति दूरयः दिविवचक्षुरातम्
क्षसे स नो